एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य सचिवालयस्य उपवेशः अद्य दिवा एकवादने वसति। पूर्वम् उपविष्टे उपवेशे स्थायी समितेः निर्णयस्य क्रियान्वयनस्य कर्णाली प्रदेशे उत्पन्नायाः दलस्य आभ्यन्तर समस्यायाः कोरोना विषाणोः कारणेन उद्भूतायाः समस्यायाश्च विषयेषु विमृष्टमासीत्। इतपूर्वम् सचिवालयस्य उपवेशस्य उपवेशनस्य अभावात् पञ्चभिः सदस्यैः उपवेशम् उपवेशयितुम् अध्यक्षाय केपी शर्मा ओलिने दत्तम् पत्रम्, तस्योत्तरे अध्यक्षेण ओलिना अपराध्यक्षाय प्रेषितं पत्रं चेति सहितानि प्रपत्राणि सर्वेभ्यः सदस्येभ्यः वितीर्णानि, तानि अधीत्य अतिरिक्तं विमर्शनं विधास्यते इति ज्ञापितमासीत्। राष्ट्रपतिना विद्यादेवी भण्डारिणा सह नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः ह्यः अमिलत। नेकपा दले पश्चात्तन समय उत्पन्नायाः आभ्यन्तर समस्यायाः विषये परामर्शनाय अध्यक्षः प्रचण्डः शीतल निवासं गतः इति अध्यक्षस्य प्रचण्डस्य संचार परामर्शदाता विष्णु सापकोटा अज्ञापयत्। धार्मिका स्थायः छठ पर्व अद्यतः प्रारभते। भगवतः सूर्यस्य पूजाराधनायाः पर्वेदम् निष्ठया पवित्रतया च समायोज्यते। अस्मिन् पर्वणि सूर्याय पक्वन्नानि प्रसादस्य रूपेण नूतन मृत्तिकायाः वंशसेवा पात्रेषु संस्थाप्य समर्प्यन्ते। सम्प्रति विभिन्नेषु नदीतटेषु पुष्करिणी तटेषु च स्वच्छीकरणं प्रारब्धमस्ति। कोरोना विषाणोः संक्रमणस्य कारणेन एतस्मिन् वर्षे राजधान्यां सम्मर्देन विना केवलं विधिं प्रपूर्य छठ पर्व समायोज्यमानमस्ति। गतदिने अतिरिक्ताः 1,278,800 जना कोरोना विषाणोः संक्रमणात् मुक्ताः सन्ति। एतदनुसारेण नेपाले कोरोना विषाणोः संक्रमणात् मुक्तानां जनानां पश्चात्तनी समग्र संख्या 179,242 च प्राप्यति। स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। इदानीन्तन तथ्याङ्कानाम् अनुसारेण नेपाले कोरोना संक्रमणात् मुक्तानां जनानां संख्यानुपातः 10.84% वर्तते। ह्यस्तन दिवसे 63,680 कोरोना विषाणोः सक्रिय संक्रान्ताः जनाः विद्यन्ते। एतेषां मध्ये 28,77% जनाः गृहकान्तवासेषु, 179,700 जनाः विभिन्नेषु चिकित्सालयेषु संस्थागतेषु एकान्तवास केन्द्रेषु च सन्तीति मन्त्रालयेन ज्ञापितं वर्तते। ह्य काष्ठमण्डपे 13,121 च, ललितपुरे 79,002, भक्तपुरे 1,035% चेति कृत्वा केवलम् उपत्यकायां 16,535% च सक्रियाः संक्रान्ताः जनाः सन्ति। कोरोना विषाणुना संक्रान्तानां जनानां मध्ये गभीरलक्षणवताम् 18,103 सघनोपचार कक्षे, 38 जनानां च कृत्रिम श्वास प्रश्वासोपकरणेषु उपचारः विद्यमानोस्तीति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। एवमेव ह्य अतिरिक्तेषु 2,500 जनेषु कोरोना विषाणो संक्रमणं पुष्टिभूतं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयेन प्रदत्तस्य ज्ञापनस्य अनुसारेण गतदिने 16,127 च निदर्शनानां रियल टाइम पीसीआर विधिना परीक्षणं विहितं सत् योगतः 98,102 पुरूषेषु, 74,102 महिलासु च संक्रमणं पुष्टिभूतमस्ति। गतदिने काष्ठमण्डपे 89,102, ललितपुरे 38, भक्तपुरे 12 चेति कृत्वा काष्ठमण्डपोपत्यकायां समग्रतः 49,73 संक्रान्तः जना वर्धिताः सन्ति। अनेन सह नेपाले अधुनावधि कोरोना विषाणुना संक्रान्तानां जनानां समग्र संख्या 111,575 प्राप्यति। स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। ह्य कोरोना संक्रमणस्य कारणेन अतिरिक्ताः 17 जनाः अम्रियन्त। नेपाले अधुनावधि कोरोना संक्रमणस्य कारणेन मृतानां जनानां समग्र संख्या 1,047,702 प्राप्यति। मन्त्रालयोऽसौ सूचयति। त्रिभुवनान्तर राष्ट्रिय विमानस्थले विमानस्थल सुरक्षा प्रहरीयावास गृहम निर्मितम् अस्ति। विमानस्थलस्य सुरक्षायै संलग्नानां 50+7300 सुरक्षाकर्मिणां कृते सामयिकावास गृह निर्माणं सम्पन्नम् अस्ति। नवनिर्मितम् आवास भवनं गतदिने उद्घाटयन् संस्कृति पर्यटन नागरिकोड्डयन मन्त्री योगेश कुमार भट्टराई विमानस्थलस्य सुरक्षायै पृथक सुरक्षा शाखायाः संघटनस्य विषये सम्बद्ध निकायेन सह विमर्शनं विधीयमानमस्तीति अज्ञापयत्। विमानस्थलस्य महाप्रबन्धकस्य देवेन्द्र केसी इत्यस्य अनुसारेण सप्तानां कोटीनां 15 लक्षाणां 17 सहस्राणां च व्ययेन भवनमेतत् निर्मितमस्ति। प्रधानमन्त्री केपी शर्मा ओली गुल्मी जनपदस्य नेकपा दलस्य नेतुः बोमबहादुर खड्गावीदस्य निधनं प्रति दुःखम् अभिव्यज्य श्रद्धाञ्जलिं व्यनक्ति। स्वर्गीयस्य खड्गावीदस्य निधनेन दलाय जनतायै राष्ट्राय च अपूरणीया क्षतिः प्राप्यति चर्चयता प्रधानमन्त्रिणा ओलिना स्वर्गीयेण खड्गावीदेन लुम्बिन्यां तत्रापि गुल्मी जनपदे वामान्दोलने प्रापितम् अविस्मरणीयं महत्वपूर्णं च योगदानं स्मृतमस्ति। गत सोमवासरस्य रात्रौ दिवंगतः आसीत्। अग्रज समाजसेवी नेपाल रेडक्रस सोसाइटी संस्थायाः संस्थापक सदस्यः पूर्वाध्यक्षश्च रमेश कुमार शर्मा ह्यः दिवंगतोऽस्ति। कोविड संक्रमणस्य विजयमन्मपि प्रलापक ज्वरस्य अन्यासां स्वास्थ्य समस्यानां च कारणेन ह्यः असौ ग्राण्डी चिकित्सालये दिवंगतो वर्तते। ह्य एव तस्य पशुपति आर्य भट्टे अन्त्य संस्कारः विहितो वर्तते। द्वितीय प्रदेश सर्वकारेण सर्वकारीय स्तरादेव सार्वजनिक यातायात सेवायाः रूपेण बसयानानां सञ्चालनं विधीयते। प्रदेश सर्वकारेण बसयान सेवायाः सञ्चालनाय 5 बसयानानि कृतानि वर्तन्ते। नैज बसयानेभ्यः न्यून भाटकेन जनताया सहजतायै जनकपुर वीरगंज स्थानयोः बसयानद्वयम् जनकपुर राजविराज स्थानयोः बसयानद्वयम् राजविराज वीरगंज स्थानयोः कृते बसयानम् एकञ्च सञ्चालयितुं सर्वकारस्य योजना वर्तते। पाल्पा जनपदस्य निस्ते ग्रामपालिकायाः सप्तमवडा क्षेत्रवर्तिनी ज्यामिरे स्थाने ह्यः ट्रिपर यानम् दुर्घटितम् स चालकः मृतो वर्तते। ज्यामिरे स्थानस्य भुकुटे स्थलात् श्वेतशिलाम् ऊढ्वा सर्दी स्थानाय प्रस्थीयमानम् ट्रिपर यानम् भोटे खर्क स्थितायाम् खसेनी खोला नद्यम् दुर्घटितम् आसीत्। दुर्घटनायाम् चालकः सिन्धुपाल्चोक जनपदस्य चौतारा नगरपालिकायाः 13 वडा क्षेत्रस्य 44 वर्षीय पूर्णबहादुर श्रेष्ठः घटनास्थले एव मृत इति रूपसे भन्ज्याङ वर्तिनः प्रहरी कार्यालयस्य प्रहरी सहायक निरीक्षकः डेढ बहादुर थापा अज्ञापयत्। सामग्रीभिः सहितं ट्रिपर यानम् मार्गात् आसन 10 मीटर मिताधः पतितम् आसीत्। घटनायाः विषये अतिरिक्तम् अनुसन्धीयमानम् अस्तीति प्रहरी ज्ञापयति। एवमेव बारा जनपदे सुमो यानम् दुर्घटितम् सद एका महिला घटनास्थले एव मृता अन्ये कतिचित् जनाः गभीरेण आहताश्च सन्ति। पिलुवा कलैया मार्गखण्डस्य बेलबाडी श्रीपुरे स्थाने सुमो यानम् दुर्घटितम् सद जीतापुर सीमरोप महानगरपालिकायाः 17 वडा क्षेत्रवर्तिनो जैतापुरस्य 44 वर्षीया सुखी धामी घटनास्थले एव मृतेति प्रहरी ज्ञापयति। विश्वस्मै कोरोना संक्रमणस्य महामार्याः अपेक्षया विश्वव्यापिनः तापक्रमस्य वृद्धेः कारणात् महान् समावयः सृज्यमानोऽस्तीति अन्तर्राष्ट्रिय रेडक्रस सोसाइटी संस्थया ज्ञापितम् वर्तते। रेडक्रस संस्थायाः रेड क्रिसेंट सोसाइटी संस्थायाश्च अन्तर्राष्ट्रिय महासंघेन प्रकाशितायाम् नूतन सूचनायाम् जलवायु परिवर्तन समस्यया सह योद्धुम् कोरोना संक्रमणाय इव महत्वम् प्रदाय कार्यम् कर्तव्यमिति उल्लिखितम् वर्तते। षष्टोत्तर एकोनविंशतितम ख्रैष्टाब्दात् विश्वव्यापिनो विनाशस्य आसन्न शतम् घटनाः जलवायु परिवर्तन सम्बद्धाः वर्तन्ते। अस्य संकटस्य कारणेन आसन्न 5 कोटयः मानवाः प्रभाविताः सन्ति। अमेरिका देशस्य नवनिर्वाचितः राष्ट्रपति जो बाइडेन भासते राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन कोरोना महामार्या नियन्त्रणाय सर्वकाराय सहयोगे अभिहिते सति महती मानवीय क्षति निर्वोढव्या भविष्यति इति समाचारः।